ओम ऐं ओम हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजां चंद्रां हिरणमयीं लक्ष्मीं जातवेदो महावहा ऐं ओम ओम ह्रीं तां महावह जातवेदो लक्ष्मीं मनवगामिनीं यस्यां हिरण्यं विन्देयंगामश्वं पुरुषानहं ह्रीं ओम ओम श्रीं अश्वपूर्वां रतमद्यां हस्तिनादप्रबोधिनीं श्रियं देवीमुपहुवये श्रीरमादेवी जुषदां श्रीं ओं ओं क्लीं कांसोऽस्मितां हिरण्यप्राकारामार्द्राञ्ज्वलन्तीं तृप्तान्तर्पयन्तीं पद्मे स्थितां पद्मवर्णान्तामिहोपहुवये श्रियं क्लीं ओं ओं वद वद ओम चंद्रां प्रभासां यशसाज्ज्वलन्तीं श्रियं लोके देवजुष्टामुदारां तां पद्मिनीमीं शरणमहं प्रपद्ये लक्ष्मीर्मेनश्यतां त्वां वृणे वद वद ओम ओम वाग्वादिनी आदित्यवर्णे तपसोति जातो वनस्पतिस्तव वृक्षोत बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः वाग्वादिनी ओम ओम ऐं उपैतुमान् देवसक कीर्तिश्च मणिना सह प्रादुर्भूतोऽसुराष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ऐं ओम ओम सौः क्षुत्पिपासामलां ज्येष्ठां लक्ष्मीं नाशयाम्यहम् अभूतिमसमृद्धिं च सर्वानृणुद मे गृहात् सौः ओम ओम हंसः गन्धद्वारान्दुराधर्षान् नित्यपुष्टाङ्गैषिणीम् ईश्वरीं सर्वभूतानां तामिहोपहुवये श्रियं सोऽहम् ओम ओम आम मनसः काममाकोतिं वाचः सत्यमशीमहि पशूनां रूपमन्यस्य मयि श्रीश्रयदां यशः आम ओम ओम ह्रीं करदमेन प्रजाभूता मयि संभव करदमा श्रियं वासे मे कुले मातरं पद्ममालिनीं ह्रीं ओम ओम क्रौं आपसृजन्तु स्निग्धानि चिक्लीतवस मे गृहे निच देवीं मातरं श्रियं वासय मे कुले क्रौं ओम ओम क्लीं आर्द्रां पुष्करिणीं पुष्टिं मिङ्गलां पद्ममालिनीं चंद्रां हिरणमयीं लक्ष्मीं जातवेदो महावहा क्लीं ओम ओम श्रीं आर्द्रां यः करणीयष्टिं सुवर्णां हेममालिनीं सूर्यां हिरणमयीं लक्ष्मीं जातवेदो महावहा श्रीं ओम ओम हुं तां महावह जातवेदो लक्ष्मीमनवगामिनीं यस्यां हिरण्यं विन्देयंगामश्वं पुरुषानहं हुं ओम ओम स्वाहा यशुचि प्रयदो भूत्वा जुहुयादाज्यमन्वहम् सूक्तं पञ्चदशर्चं च श्रीकामस्तदनं जपेत स्वाहा ओम।